इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः उत्तरप्रदेशस्य अयोध्यायां स्थितस्य श्रीरामजन्मभूमिमन्दिरस्य शिखरस्य उपरि धर्मध्वजारोहणं कृतम्। अनेन मन्दिरनिर्माणकार्यस्य समाप्तेः, सांस्कृतिक उत्सवस्य, राष्ट्रिय एकतायाः च नूतनः अध्यायः प्रारब्धः। अस्मिन् अवसरे प्रधानमन्त्रिणा उक्तं यत् अयं ध्वजः भारतीय संस्कृतेः पुनर्जागरणं प्रदर्शयति। सः अवोचत् यत् अयं पवित्रः ध्वजः साक्ष्यरूपेण स्थितः भविष्यति, यत् अन्ततो गत्वा सत्येन असत्यं पराजितम्। प्रधानमन्त्री अवोचत् यत् लोकतन्त्रमस्य देशस्य कोशिकासु विद्यते। सः अवोचत् यत् केन्द्रसर्वकारः प्रत्येकस्य जनस्य कृते, विशेषतः सामान्यस्य उपेक्षितवर्गस्य उन्नत्यै कार्यं कुर्वन् अस्ति। सः अवदत् रामः भेदभावं न करोति, सर्वकारः अपि अनेन एव भावेन अग्रे गच्छन् अस्ति।
21वीं सदी की अयोध्या मानवता को विकास का नया मॉडल दे रही है। तब अयोध्या मर्यादा का केंद्र थी, अब अयोध्या विकसित भारत का मेरुदंड बनकर उभर रही है। साथियों, भविष्य की अयोध्या में पौराणिकता और नूतनता का संगम होगा। सरयू जी की अमृत धारा और विकास की धारा एक साथ बहेगी। यहाँ अध्यात्म और आर्टिफिशियल इंटेलिजेंस दोनों का तालमेल दिखेगा।
प्रधानमन्त्री नरेन्द्र मोदी हरियाणायाः कुरुक्षेत्रे गुरु तेग बहादुर जी वर्यस्य 50-उत्तर-300 बलिदान दिवसस्य स्मरणे विशिष्ट कार्यक्रमे भागम् अभजत्। कार्यक्रमस्य अवसरे श्रीमोदी पूज्य गुरु तेग बहादुर वर्यस्य बलिदान दिवसस्य स्मारकरूपेण विशेष मुद्रां प्रैष्य चिटिकां च विमोचितवान्। यात्रावधौ प्रधानमन्त्री भगवतः श्रीकृष्णस्य पवित्र शङ्खस्य सम्माने परिकल्पितस्य नवनिर्मितस्य भवनस्य पञ्चजन्यस्य अपि उद्घाटनं कृतवान्। अद्य राष्ट्रं संविधान दिवसम् आचरति। वर्षस्यास्य उत्सवस्य विषयः वर्तते अस्मदीयं संविधानम् अस्मदीयं स्वाभिमानम् इति। अवधेयास्पदं वर्तते यत् मुख्यः समारोहः नवदिल्लीनगरस्य संविधान सदनस्य केन्द्रीय सभामण्डपे भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी, लोकसभाध्यक्षः ओम बिरला, केन्द्रीयमन्त्री संसद सदस्याः च अस्मिन् कार्यक्रमे भागं ग्रहीष्यन्ति। राष्ट्रपतिः संविधानस्य प्रस्तावनायाः पठनस्य नेतृत्वं विधास्यति। कार्यक्रमावधौ भारतस्य संविधानस्य अनुवादितं संस्करणं मलयालम्, मराठी, नेपाली, पंजाबी, बोडो, कश्मीरी, तेलुगु, ओडिया, असमीज इत्यादिषु नवभाषासु प्रकाशयिष्यन्ते। अद्य गुजरात राज्ये सरदार वल्लभ भाई पटेलस्य कुटुम्ब गृहात् कसमसाद नगरात् भव्य राष्ट्रिय पदयात्रायाः आरम्भो भविता। यात्रायाः परिसमाप्तिः दिसम्बर मासस्य 6 स्टैच्यू ऑफ यूनिटी इत्यत्र भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी यात्रायाः उद्घाटने आभासीय माध्यमेन भागं ग्रहीष्यति। गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः केन्द्रीयमन्त्री मनसुख मांडविया, निमुबेन बंभानिया च उद्घाटन समारोहे भागं ग्रहीष्यन्ति। आईसीसी इति अन्ताराष्ट्रिय क्रिकेट परिषदा 26,000-तम वर्षस्य पुरुषाणां T20 विश्वकप इत्यस्य कार्यक्रमस्य घोषणा विहिता। स्पर्धायाः आरम्भः फरवरी मासस्य 7 भविष्यति, यत्र भारत श्रीलंका देशौ आतिथेयरूपेण कार्यं करिष्यतः। भारत पाकिस्तान दलयोर्मध्ये क्रीडा फरवरी मासस्य 15 कोलंबो नगरस्य आर प्रेमादास क्रीडांगणे भविष्यति इति वार्ताः।